एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली अस्मिन् चीनदेशस्य औपचारिकी भ्रमणस्य समये ऋणसम्बद्धा कापि संविदा न भविष्यतीति स्पष्टयति आसन्न चीनदेशस्य भ्रमणस्य सन्दर्भे ह्यः पूर्व प्रधानमन्त्रिभिः पूर्व परराष्ट्र मन्त्रिभिश्च सह विहिते विमर्शने प्रधानमन्त्री ओली बीआरआई इत्याख्या परियोजना ऋणस्य परियोजना नास्तीति चर्चयन् चीनदेशात् ऋणग्रहणस्य अग्रहणस्य च विषयः सम्प्रति विवादस्य विषयो नास्तीति समस्पष्टयत् असौ अवदत् चीनदेशेन सह दीर्घकालिक मैत्री सम्बन्धोऽस्तीत्यतः द्वयोः देशयोः मित्रतां बहुआयामिकीं विधातुं भ्रमणमिदं जायमानमस्ति प्रधानमन्त्री ओली चीनदेशस्य भ्रमणे विशेषतया विगतकाले सम्भूतानां सहमतीनां संविधानाञ्च प्रभावकारि क्रियान्वयन सहैव प्रसारणमार्गस्य विस्तारस्य नेपालस्योत्पादनस्य चीनदेशे निर्यातस्य अन्येषां सहयोगानाञ्च सन्दर्भे विमर्शनत्वेन पूर्वकार्यं विहितमस्तीति असूचयत् प्रधानमन्त्री ओली प्रतिवेशिना भारतेन सहापि तादृशः एव दृढः सम्बन्धोऽस्तीति स्पष्टयन् द्वयोः देशयोः मैत्री सम्बन्धः नेपालस्य विकासे उपयोक्तव्यः इति प्रावोचत् विमर्शने पूर्व प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डः नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः पूर्व परराष्ट्र मन्त्री डाक्टर प्रकाश चन्द्र लोहनी परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा च धारणा व्यक्तवन्तः सर्वकारेण नेपाल न्यासपत्र संस्थायाः अध्यक्षपदे सन्तोष नारायण श्रेष्ठं नियोक्तुं निर्णीतमस्ति सिंहप्रासादवर्तिनि प्रधानमन्त्री कार्यालये ह्यः उपविष्टेन मन्त्रिपरिषदः उपवेशेन श्रेष्ठं न्यासपत्र संस्थायाः अध्यक्षपदे नियोक्तुं निर्णीतमस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ अज्ञापयत् एवमेव मन्त्रिपरिषदः उपवेशेन प्रधानमन्त्रिणः चीन भ्रमणस्य विषये पूर्वकार्याय परराष्ट्रमन्त्रिणः डाक्टर आरजू राणा देउवा इत्यस्याः नेतृत्वस्य प्रतिनिधिमण्डलस्य चीन भ्रमणं स्वीकृतमस्तीति मन्त्री गुरूङ असूचयत् परराष्ट्रमन्त्री डाक्टर राणा प्रधानमन्त्रिणः केपी शर्मा ओलिनः भ्रमणस्य पूर्वकार्याय अस्यैव मार्गशीर्षमासस्य त्रयोदशे दिवसे चीनदेशं प्रति प्रस्थास्यमाना वर्तते नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा भाषते बीआरआई परियोजनायै ऋणापेक्षया अनुदान सहयोगः स्वीकरणीयः जनकपुर विमानस्थले ह्यः संचारकर्मिभिः सह सभापतिः देउवा ऋणापेक्षया अनुदान सहयोगः उपयुक्तो भवतीति अवदत् सभापतिः देउवा चीनदेशः नेपालस्य घनिष्ठं मित्रम् अस्तीत्यतः प्रधानमन्त्रिणः आसन्न चीन भ्रमणात् सम्बन्धं दृढयितुं सहयोगो भविष्यतीति प्रावोचत् सभापतिः देउवा मधेश प्रदेशस्य सर्वकारस्य नेतृत्वस्य परिवर्तनाय नेपाली कांग्रेस दलेन एकाकिना किमपि कर्तुं न शक्यते इत्यतः सत्ता गठबन्धने सहभागिषु दलेषु विमर्शनस्य आवश्यकता अस्ति इति प्रावोचत् शैत्यात् प्रधानमन्त्री केपी शर्मा ओली विपदः प्रतिकरणार्थं पूर्वकार्येषु विपदः अन्तरकालिकानुसन्धानोद्धार कार्येषु च प्रवर्तनाय बलं ददाति नेकपा एमाले दलीय केन्द्रीय विपद व्यवस्थापन स्वयंसेवा विभागेन शीतकाले नागरिकाणां शैत्याद् रक्षणाय विधातव्यानां पूर्वकार्याणां विषये विहितं ध्यानाकर्षण पत्रं गृह्णन् प्रधानमन्त्री ओली नागरिकाणां शैत्याद् रक्षणाय गृहमन्त्रालयस्य माध्यमेन सम्बद्ध निकायाः तत्कालं निर्देश्यन्ते इति समाश्वासयत् सिंहप्रासादवर्तिनि प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये विभागस्य प्रमुखेण खिमलाल भट्टराई इत्यनेन सहितेन समूहेन तराई मधेश क्षेत्रे देशस्य अन्य भूभागेषु च शैत्यस्य समये वस्त्राणां काष्ठानां च अभावेन नागरिकैः अधिक पीडा अनुभूयते इत्यतः तत्प्रतिकरणार्थं पूर्वकार्येभ्य प्रवर्तनाय प्रधानमन्त्री अनुरुद्ध आसीत् नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा कथयति नेपालस्य प्रजातान्त्रिक आन्दोलनस्य क्रमे त्यक्त प्राण जन प्रदर्शिते मार्गे अग्रे वर्धनम् आवश्यकम् भवति। जनकपुर उपमहानगरपालिकायाः पञ्चविंश वडा क्षेत्रस्य लोहना स्थाने नेपाली कांग्रेस दलस्य नेतुः राष्ट्रियसभायाः पूर्व सदस्यस्य च स्वर्गीयस्य अरविन्द ठाकुरस्य प्रतिमायाः अनावरणं विदधानः सभापतिः देउवा अगदत् स्वर्गीय ठाकुर सदृशानां नेतृणां कारणेनैव देशः संघीय लोकतान्त्रिकाभ्यासे अस्ति। कार्यक्रमे नेपाली कांग्रेस दलस्य पूर्वोपसभापतिना विमलेन्द्र निधि इत्यनेन सहित नेतृभिः स्वर्गीयस्य नेतुः ठाकुरस्य विषयं तदीयं योगदानं च चर्चितम् आसीत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति अनुसन्धानेन पारिलक्ष्यं जनाः प्रभाविताः भवन्तीत्यतः अनुसन्धाने उच्चतमं नैतिक मानदण्डं पूरयितुम् आवश्यकं वर्तते। नेपाल स्वास्थ्य अनुसन्धान परिषदः आयोजनायां संचल्यमानस्य स्वास्थ्य सम्बद्धस्य चतुर्विंशतितमस्य शिखर सम्मेलनस्य उद्घाटन सत्रे मन्त्री पौडेलः अनुसन्धाने नैतिकता स्वास्थ्य सेवायां विश्वासोत्पादनस्य मूलाधारो वर्तते इति प्रावोचत्। नेपाले प्रथमवारं आयोजिते सम्मेलने अमेरिका जापान बेलायत फिलिपिन्स पोल्याण्ड मलेसिया नर्वे ग्रीस केन्या ब्राजिल भारत प्रभृतीनां त्रयोविंशतेः देशानां विज्ञानां सहभागिता वर्तते। स्वस्थनं दिवसं यावत् सञ्चाल्यमानस्य सम्मेलनस्य प्रथमे दिवसे ह्य अनुसन्धानस्य स्वीकृतेः अनन्तरं अनुसन्धानकर्तॄणाम् आचार संहिता पुनरवलोकन समितौ विद्यमानानां विज्ञानां भूमिकायाः विषये सहभागिभ्यः प्रशिक्षणं प्रदत्तमासीत्। राष्ट्रिय विकास समस्या समाधान समितेः उपवेशेन उच्चस्तरीय शासकीय सुधार परामर्शायोगं संघटयितुं निर्णीतमस्ति। सार्वजनिक प्रशासनं न्यूनव्ययुतं उत्तरदायी सक्षमं च विधातुं नियुक्तेः स्थानान्तरणस्य पदस्थापनस्य अधिकार प्रत्यायोजनस्य कार्यसम्पादनस्य मूल्यांकनस्य अध्ययनस्य समग्र वृत्ति विकासस्य च चक्र प्रणाल्यां विधीयमानानां सुधाराणां विषयान् परिचित्य शासकीय सुधारस्य कृते परामर्श प्रदानाय आयोगं संघटयितुं निर्दिष्टं वर्तते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह रोगेण ग्रस्ती भवनात् पूर्वमेव ततः आत्मानं रक्षितुं सर्वहि प्रवर्तनीयम् इति विचारं विनक्ति। मध्यपूरछिमी नगरपालिकया सञ्चाल्यमानस्य नेपाल कोरिया मैत्री नगरपालिका चिकित्सालयस्य भवनस्य पूर्वेद्युः शिलान्यासं विदधानः मन्त्री सिंह स्वस्य स्वास्थ्याय प्रथमतः ध्यानं देयमित्यत्र बलं प्रददत्। एतदर्थं मध्ये मध्ये स्वास्थ्य परीक्षणस्य आवश्यकतां प्रादर्शयत्। कार्यक्रमे सांसदः दुर्लभ थापा नेपालस्यैव प्रथम नगर चिकित्सालयस्य रूपेण स्थापितस्य अस्य चिकित्सालयस्य न केवलं भक्तपुरस्य रोगिणाम् उपचारकत्वेन अपितु आराष्ट्रं रोगिणाम् उपचारस्य विधानत्वेन विकासो विधेय इति बलं प्रादात् इति समाचारः।